एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रधानमन्त्रिणा केपी शर्मा ओलिना उच्चस्तरीयस्य राजनीतिक संयन्त्रस्य उपवेशः आहूतोऽस्ति। प्रधानमन्त्रिणा ओलिना अद्य सायं षड्वादनाय उच्चस्तरीयस्य राजनीतिक संयन्त्रस्य उपवेश आहूतोऽस्तीति प्रधानमन्त्रिणा संचार विज्ञा रामशरण बजगाई ज्ञापयति। बालवाटारा वर्तिनी प्रधानमन्त्री निवासे आयोक्षमाणे उपवेशे सामयिक राजनीतिक घटनानां सर्वकारस्य सञ्चालनस्य च विषयेषु विमृक्षते इति संचार विज्ञा बजगाई अज्ञापयत्। संयन्त्रे एमाले दलस्य पक्षतः वरिष्ठ उपाध्यक्ष ईश्वर पोखरेलः, अर्थमन्त्री विष्णु पौडेलः, महासचिव शंकर पोखरेलः, प्रधानमन्त्रिणः प्रमुख राजनैतिक परामर्शदाता विष्णु रिमालश्च वर्तन्ते। एवमेव नेपाली कांग्रेस दलस्य पक्षतः उपसभापति पूर्णबहादुर खड्का, महामन्त्री गगन कुमार थापा, गृहमन्त्री रमेश लेखकः, परराष्ट्र मन्त्री डाक्टर आर्जु राणा देउवा च वर्तन्ते। प्रधानमन्त्री केपी शर्मा ओली भाषते सामाजिक मर्यादायाः विपरीतानां गतिविधीनां नियन्त्रणं विधीयते। महान्यायाधिवक्तुः कार्यालयेन ह्यः आयोजितस्य अत्याधुनिकापराधसम्बद्धस्य अन्तर्राष्ट्रिय सम्मेलनस्य उद्घाटनम् विदधानः प्रधानमन्त्री ओली सामाजिक मर्यादाम् अतिक्रम्य घृणाविस्तारस्य कार्यम् अवरुद्धुम् सर्वकारस्य ध्यानाकर्षणम् जातमस्तीति अभासत। प्रधानमन्त्री ओली अत्याधुनिकस्य प्रविधेः प्रयोगः मानवसुखाय समृद्धये च करणीयः इत्यत्र बलं प्रादात्। प्रधानमन्त्री ओली सर्वकारेण सामाजिक सञ्जालस्य प्रयोगाधिकारस्य विपरीततया कोऽपि विधि न निर्मास्यते इत्यतः विषयेऽस्मिन् अनावश्यकीं शंकां न कर्तुम् अन्वरुणत्। प्रधानमन्त्री ओली अत्याधुनिक प्रविधेर्युगे एकाकिनः कस्यापि देशस्य प्रयासेन अपराधस्य नियन्त्रणं न सम्भवतीत्यतः एतदर्थम् अन्तर्राष्ट्रिय सहयोगादान प्रदानस्य आवश्यकतायां बलं प्रादात्। महान्यायाधिवक्ता रमेश बडालः आपराधिकीषु घटनासु अत्याधुनिक प्रविधेः प्रयोगेण अपराधस्य क्रमः वर्धमानोऽस्ति, सामाजिक सञ्जालस्य दुरूपयोगेन सहैव अत्याधुनिक प्रविधेर्माध्यमेन जायमानस्य वञ्चनस्य नियमनाय वित्तापराधस्य रोदनाय च काठिन्यं वर्तते इति च अवोचत। सम्मेलनम् अद्य पर्यन्तं चलति। परराष्ट्र मन्त्रिणा डाक्टर आर्जु राणा देउवा विधया संयुक्त राष्ट्र संघीय मानवाधिकार परिषदः सदस्यपदे नेपालस्य मतदानं कर्तुं विश्व समुदायः अनुरुद्धो वर्तते। मन्त्री डाक्टर राणा जेनेवा स्थितेन नेपाली स्थायी नियोगेन आयोजितं स्वागत समारोहं पूर्वेद्युः सम्बोधयन्ती सीमित स्रोत साधनेषु सत्स्वपि मानवाधिकाराणां रक्षायाः प्रवर्धनस्य च क्षेत्रेषु नेपालेन विहितानि कार्याणि प्राप्ताम् उपलब्धिं च विलोक्य नेपालाय मतं दातुम् अनुरुद्धवती। समारोहे जेनेवा नगरे विद्यमानानां शतादपि अधिकानां देशानां राष्ट्रसंघीय स्थायी नियोगानां प्रमुखाणां राजदूतानां विभिन्न अन्तर्राष्ट्रिय संघ संस्थानां प्रतिनिधीनां च उपस्थितिः आसीत्। प्रहरेणा त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् 3 किलोग्राम परिमितेन 45.77 ग्राम सुवर्णेन सहिताः तिस्रो महिलाः एकः पुरूषश्चेति सम्बध्य चत्वारो जनाः निगृहीताः सन्ति। दुबई वायुयानात् काष्ठमण्डपम् आगताः चत्वारो जनाः स्वर्णेन सहिताः निगृहीताः सन्तीति त्रिभुवनान्तर्राष्ट्रिय विमानस्थल सुरक्षा कार्यालयस्य प्रमुख सोमेन्द्र सिंह राठौर असूचयत। निगृहीताः उज्बेकिस्तान देशस्य नागरिकाः वर्तन्ते। घटनायाः विषये प्रहरिणा अतिरिक्तम् अनुसन्धानम् विहितमस्तीति च विमानस्थल सुरक्षा प्रमुख राठौर अज्ञापयत्। शेर्पा समुदायेन अद्य तत्समुदायस्य नववर्षस्य स्वागतम् विधाय ग्याल्पो ल्होसार पर्व भव्यरूपेण आयोज्यमानमस्ति। फाल्गुन शुक्ल पक्षस्य प्रतिपदा तिथितः शेर्पा समुदायस्य नववर्षम् प्रारभ्यते इत्यतः तत्समुदायेन पर्वेदम् नववर्षत्वेन समाद्रियते। अस्मात् दिनात् शेर्पा समुदायस्य द्वापञ्चाशदुत्तरैक विंशतितम शततमस् नववर्षम् प्रारब्धमस्ति। लोसार पर्वणः अवसरे अद्य राजधान्यां काष्ठमण्डपे देशस्य अन्यत्र बहुषु स्थानेषु विशेषरूपेण शेर्पाजातेः बाहुल्ययुतेषु जनपदेषु च विभिन्नाः कार्यक्रमाः समायोजिताः सन्ति। अवसरेऽस्मिन् सर्वकारेण अद्य सार्वजनिकावकाशः उद्घुष्टोऽस्ति। अवसरेऽस्मिन् राष्ट्रपति प्रवृत्तिभिः राजनीतिक नेतृभिः शुभकामना सन्देशाः प्रकाशिताः वर्तन्ते। राष्ट्रपतिः रामचन्द्र पौडेलः कथयति, ग्याल्पो ल्होसार प्रवृत्तिभिः पर्वभिः नेपालीनां मध्ये एकतायाः, सामाजिक्याः, सांस्कृतिक्याश्च ऐकबद्धतायाः, सहिष्णुतायाः, सद्भावस्य, बन्धुत्वस्य च भावनायाः अभिवर्धनं भवति इति उक्तवान् अस्ति। अवसरेऽस्मिन् उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन पर्वणा अनेन सम्पूर्ण देशे समाजे च पारस्परिक बन्धुत्वस्य, सद्भावस्य, एकतायाः च भावनायाः सुदृढीकरणाय परिवार मित्र समुदाय वर्गेषु भोजन नृत्य संगीतानां कार्यक्रमाणाम् आयोजनायाः दर्शनात् समाजे पारस्परिक मेलनाय सहयोगः प्राप्स्यति इति उल्लिखितं वर्तते। ग्याल्पो ल्होसार पर्वणः अवसरे नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विदेन च शुभकामना सन्देशः प्रकाशितोऽस्ति। सिन्धुपाल्चोक जनपदस्य भैरवकुण्ड स्थानस्य निकटवर्ती क्षेत्रं केन्द्रबिन्दुं निर्माय 10.1 म्याग्निच्युट परिमाणस्य भूकम्पः दूरापन्नोऽस्ति। खनी भूगर्भ विभागस्य अन्तर्गतस्य राष्ट्रिय भूकम्प मापनानुसन्धान केन्द्रस्य अनुसारेण अद्य प्रातः 1:55 भूकम्पनं दूरापन्नं वर्तते। राजधानी प्रवृत्तिषु निकटवर्तिषु स्थानेषु भूकम्पस्य अनुभवः सम्भूतः आसीत्। भूकम्पनस्य अनुभवः नेपालस्य पूर्वभागस्य कतिसूचित जनपदेष्वपि सम्भूतोऽस्ति। भूकम्पनस्य कारणेन रात्रौ निद्रायां स्थिताः जनाः गृहात् बहिः सुरक्षितस्थानेषु समागताः आसन्। भूकम्पस्य कारणेन सम्भूताय क्षतेः विवरणस्य विषय अधुनावधि कोऽपि प्राप्तो नास्ति। राष्ट्रियसभाया संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः उपवेशे लोकसेवायोगस्य 65वां वार्षिक प्रतिवेदनम् आधृत्य विमृष्टं वर्तते। समितेः ह्यस्तनोपवेशे लोकसेवायोगस्य अध्यक्ष माधव रेग्मी प्रदेश सर्वकारेण अध्यादेशम् आनीय करार सेवायाम् अस्थायी कर्मचारिणां नियोजनम् उचितम् न भवतीति अभासत। अध्यक्षो रेग्मी प्रदेश सर्वकारेण नियुक्तानाम् कर्मचारिणाम् विषये प्रश्नः उत्थाप्यमानोऽस्तीति उपवेशम् अज्ञापयत्। विपद संकट न्यूनीकरण व्यवस्थापन कार्यकारी समितेः 39वां पश्चिम नेपाले भूकम्पात् क्षतिग्रस्तानाम् नैजावासानाम् विस्तृततया क्षतेः संकलनाय संकलनस्य पुनर्लाभस्य च कार्यक्रमेभ्यश्च अतिरिक्तानां जनशक्तीनां व्यवस्थापनार्थम् आवश्यकम् आयव्ययकं स्वीकृतमस्ति। विपद संकट न्यूनीकरण व्यवस्थापन कार्यकारी समितेः अध्यक्षस्य गृहमन्त्रिणः रमेश लेखकस्य अध्यक्षतायाम् उपविष्टेन उपवेशेन एतत् विक्रमवर्षीय विपद स्वयंसेवक परिचालन पाठ्यक्रमश्च स्वीकृतोऽस्ति। उपवेशेन विपदी आपतितानां व्यक्तिनां उद्धाराय व्ययीभूतं वायुसेवा भाटकं विपद व्यवस्थापन कोषात् प्रदातुं स्वीकृति दत्तास्ति। गृहमन्त्रिणा लेखकेन भूकम्पानन्तरं क्षतेः आकलनपूर्वकं पुनर्निर्माणाय पुनस्थापनायै च तीव्रता प्रदत्तास्तीति उक्तं वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाह प्रचण्ड गदति, जनतायाः समस्यानां समाधानस्य विषयः राष्ट्रियरूपेण उत्थापयिष्यते। जनतया सह माओवादी दलमिति समाघोषणा सञ्चालितस्य तराई मधेश जागरणाभियानस्य क्रमे ह्य सुनसरी जनपदे आयोजिते कार्यक्रमे अध्यक्ष प्रचण्ड एवम् अगदत् इति समाचाराः।